इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य जॉर्डन इथियोपिया ओमान देशानां यात्राः समारब्धवान्। सघन कुज्झटिका कारणात् दिल्ली विमानस्थानकेन सम्प्रति कैट तृतीय स्थित्यां विमानानां परिचालनं क्रियते। ऑस्ट्रेलिया देशे न्यू साउथ वेल्स नगरस्य आरक्षानुसारं सिडनी नगरस्य बोंडी समुद्रतटस्य गुलिका प्रहार कांडे सम्मिलितौ जनौ मूलतः पाकिस्तान देशस्य लाहौर नगरस्य पिता पुत्रौ स्तः। गुलिका कांडे षोडश जनाः मृत्युमुपगताः। अपि च गृहमन्त्री अमित शाहः अद्य सरदार वल्लभ भाई पटेलस्य पुण्यतिथ्यावसरे श्रद्धांजलिं समर्पितवान्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य जॉर्डन इथियोपिया ओमान देशानां यात्राः समारब्धवान्। यात्रायाः प्रथमे चरणे श्रीमोदी राज्ञः अब्दुल्ला द्वितीयस्य इब्न अल हुसैनस्य आमन्त्रणे जॉर्डन देशं सम्प्राप्तवान्। स्वकीये प्रस्थान वक्तव्ये प्रधानमन्त्रिणा उक्तं यत् सः राज्ञा अब्दुल्ला जॉर्डन देशस्य प्रधानमन्त्रिणा जाफर हसन इत्यनेन च सह विस्तृतं चर्चां करिष्यति। श्रीमोदी अम्मान नगरे जीवन्त भारतीय समुदायैः सह मेलनं करिष्यति, ये भारत जॉर्डन सम्बन्धेषु महत्वपूर्णां भूमिकां निर्वहन्ति। श्रीमोदिनः यात्रा द्वयोः देशयोः मध्ये कूटनीतिक सम्बन्धानां स्थापनायाः पञ्चसप्तति वर्षाणां पूर्त्यवसरे भवति। अम्मान नगरात् प्रधानमन्त्री श्वः इथियोपिया देशस्य राजधान्यां आदिस अबाब नगरे गमिष्यति। सः आदिस अबाब नगरे इथियोपिया देशस्य प्रधानमन्त्रिणा डॉ अबी अहमद अली इत्यनेन सह चर्चां करिष्यति। श्रीमोदी भारतीय प्रवासिभिः सह मेलनं करिष्यति तथा च संसदः संयुक्त सम्मेलनम् अपि सम्बोधयिष्यति। यात्रायाः अन्तिमे चरणे श्रीमोदी बुधवासरे ओमान देशस्य मस्कट नगरं सम्प्राप्स्यति। एषा यात्रा भारत ओमान देशयोः राजनैतिक सम्बन्धस्य स्थापनायाः सप्ततिवर्षाणां प्रतीकः भवति। मस्कट नगरे श्रीमोदी ओमान देशस्य सुल्तानेन सह चर्चां करिष्यति तथा च ओमान देशे भारतीय प्रवासिनां समागमम् अपि सम्बोधयिष्यति। सघन कुज्झटिका कारणात् दिल्ली विमानस्थानके सम्प्रति कैट तृतीय स्थित्यां विमानानां परिचालनं प्रचलति। दिल्ली विमानस्थानकेन एकस्मिन् संचेतनायां संसूचितं यत् अनेन कारणेन विमानयानानां विलम्बः निरस्तीकरणं च भवितुमर्हति। तेन आश्वासितं यत् तेषां दलानि सुगमयात्रां सुनिश्चेतुं यात्रिणां सक्रियतया साहाय्यं कुर्वन्तः सन्ति। कैट तृतीयम् इति एका नौपरिवहन व्यवस्था अस्ति यया सघन निहारे प्रतिकूल ऋतौ यदा दृश्यता न्यूना भवति तदा विमानानाम् अवतरणे साहाय्यं भवति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ऑस्ट्रेलिया देशे न्यू साउथ वेल्स नगरस्य आरक्षानुसारं सिडनी बोंडी समुद्रतटस्य गुलिका प्रहार कांडे सम्मिलितौ जनौ मूलतः पाकिस्तान देशस्य लाहौर नगरस्य पिता पुत्रौ स्तः। एकः 50 वर्षीयः साजिद अकरम आक्रमणकाले आरक्षकैः मारितम्। तस्य 24 वर्षीयः पुत्रः नवीद अकरम इत्येषः व्रणितः अस्ति। सम्प्रति तस्य चिकित्सालये उपचारः प्रचलति। अस्मिन् आक्रमणे 16 जनाः मृताः। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण ऑस्ट्रेलिया देशस्य विदेशमन्त्रिणा पेनी बोंग इत्यनेन सह दूरभाषमाध्यमेन वार्ता कृता। सामाजिकान्तर्जालीये पटले लिखिते सन्देशे मन्त्री अवदत् यत् वार्तालापस्य समये सः बोंडी समुद्रतटस्य आतंक्याक्रमणस्य विषये गभीरं शोकं प्रकटितवान्, पूर्णं समर्थनं च प्रदत्तवान्। प्रधानमन्त्री नरेन्द्रमोदी अद्य लौहपुरुषस्य सरदार वल्लभ भाई पटेलस्य 75वें पुण्यतिथ्यावसरे श्रद्धाञ्जलिं समर्पितवान्। एकस्मिन् सामाजिकान्तर्जालीये सन्देशे श्रीमोदी अवदत् यत् सरदार पटेलेन देशम् एकस्मिन् सूत्रे आनेतुं स्वस्य जीवनं समर्पितम्। सः अवदत् यत् अविभक्तस्य सशक्तस्य च भारतवर्षस्य निर्माणे तस्य योगदानं राष्ट्रं सर्वदा स्मरिष्यति। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य सरदार वल्लभ भाई पटेलस्य 75वें पुण्यतिथ्यावसरे श्रद्धाञ्जलिं समर्पितवान्। सामाजिक पटलीये सन्देशे उपराष्ट्रपतिः अवदत् यत् सरदार वल्लभ भाई पटेलः राज्यानां एकीकरणाय, अखिल भारतीय सेवानां स्थापनाय च महत्वपूर्णां भूमिकां निर्वहत्, यया राष्ट्रस्य ऐक्यं प्रशासनिकं च संरचनाः सुदृढा भवत्। गृहमन्त्री अमितशाहः अद्य सरदार वल्लभ भाई पटेलस्य पुण्यतिथ्यावसरे श्रद्धाञ्जलिं समर्पितवान्। सामाजिकान्तर्जालीये सन्देशे गृहमन्त्री अवदत् यत् अनेकेषु प्रतिकूल परिस्थितिषु सत्सु अपि सरदार पटेलः विखण्डितं स्वतन्त्रं भारतं सुदृढ राष्ट्रं कृतवान्। श्री शाहः अवदत् यत् देशस्य प्रथमस्य गृहमन्त्रिरूपेण सरदार पटेलः भारतमातुः सुरक्षाम्, आन्तरिकस्थिरतां, शान्तिं च सुनिश्चेतुं स्वस्य जीवनं समर्पितवान्। मन्त्रिणा उक्तं यत् सरदार पटेलः सहकार आन्दोलनस्य पुनरुत्थानं कृत्वा महिलानां, कृषकाणां च आत्मनिर्भरतायाः माध्यमेन आत्मनिर्भर भारतस्य आधारं स्थापितवान्। विदेशमन्त्री डॉक्टर एस जयशंकरः अद्य यूएई देशस्य उपप्रधानमन्त्रिणा तथा विदेशमन्त्रिणा शेख अब्दुल्ला बिन जायद अल नाह्यान इत्यनेन सह आबुधाबी नगरे 16वें संयुक्त आयोगस्य 5वें सामरिक संवादस्य च सह अध्यक्षतां करिष्यति। तदनन्तरं डॉक्टर जयशंकरः इजरायल देशं गमिष्यति। इजरायल देशस्य स्वीय समकक्षेन गिदोन सार इत्यनेन सह द्वैपाक्षिकं विमर्शं च करिष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रीय गृहमन्त्री अमित शाहः च अद्य भारतीय स्क्वैश दलं वर्धापितम्। दलेन 25,000-2,000 SDAT स्क्वैश विश्वचषक स्पर्धायां प्रथमं विश्वचषक उपाधिं विजित्य ऐतिह्यं विरचितम्। सामाजिक पटले श्रीमोदी जोशना चिनप्पा, अभय सिंह, बेल्वन सेंथिल कुमार, अनाहत सिंह इत्येतेषाम् उत्कृष्ट प्रदर्शनस्य प्रशंसाम् अकरोत्। तेषां समर्पणम्, अनुशासनम्, दृढनिश्चयं च राष्ट्रं गौरवान्वितं करोति। अन्ते मुख्य वार्ताः पुनः एकवारम्। प्रधानमन्त्री नरेन्द्रमोदी अद्य जॉर्डन, इथियोपिया, ओमान देशानां यात्राः समारब्धवान्। सघनकुज्झटिका कारणात् दिल्ली विमानस्थानके सम्प्रति कैट तृतीय स्थित्यां विमानानां परिचालनं प्रचलति। गृहमन्त्री अमितशाहः अद्य सरदार वल्लभ भाई पटेलस्य पुण्यतिथ्यावसरे श्रद्धाञ्जलिं समर्पितवान्। इति वार्ताः।